पुनः क्षम्यताम्। अस्तु, कः अस्ति?
वर्धने अस्मि भगिनि।
हा वर्धने भगिनि, अस्तु, अस्माकं विषयः अस्ति स्मृतिलक्षणम्। मातृपदं स्मृतिलक्षणवाक्ये अस्ति। मातृपदं त्रिषु स्थलेषु, त्रिषु लक्षणवाक्येषु उपयुक्तम् अस्ति, रूपलक्षणे, स्पर्शलक्षणे, स्मृतिलक्षणे च। मातृपदेन चक्षुषा एव, न अन्येन ग्राह्यः यत्किमपि रूपम् इति। पुनः स्पर्शलक्षणवाक्ये त्वचा एव ग्राह्यः, न अन्येन। पुनः स्मृतिलक्षणे संस्कारेण एव जन्यं, न अन्येन इति अर्थः वा इति गतसप्ताहे दृष्टम्। प्रथमतया दृष्टं यत् एकेन कारणेन कार्यं न सिद्ध्यति, समवायी असमवायी निमित्तकारणानि भवन्ति प्रतिकार्यं प्रति। उदाहरणत्वेन ज्ञानं प्रति आत्मा समवायिकारणम्, आत्ममनसंयोगः असमवायिकारणं, मनः निमित्तकारणम् इति दृष्टम्। तथैव स्मृतिं प्रति संस्कारः एव कारणम् इति वा? तथा नास्ति। तर्हि मातृपदस्य विवक्षा का? चक्षुर्भिन्नं, त्वग्भिन्नं वा संस्कारभिन्नम् इति अवबोधः, परन्तु स्पष्टता तत्र नास्ति। अनेन अग्रे पठेम, मातृपदस्य विवक्षा का? प्रत्येकस्मिन् लक्षणवाक्ये मातृपदस्य सार्थकता का इति पश्यामः। कृपया करपत्रम् उद्घाटयन्तु। अस्तु, राजेन्द्रमहोदय आरम्भं करोति वा?
अहं पठामि वा भगिनि?
आम् आम् अवश्यम्।
अस्तु भगिनि। सर्वत्र मातृपदेन निवार्यं चिन्त्यम्। चक्षुर्मातृग्राह्यत्वे अस्ति सति गुणत्वं रूपस्य लक्षणम्। त्वगिन्द्रियमातृग्राह्यत्वे सति गुणत्वं स्पर्शस्य लक्षणम्। संस्कारमातृजन्यत्वे अस्ति ज्ञान समृद्धेः लक्षणम्। एषु सर्वेषु स्थलेषु प्रश्नः उदेति यत् वस्तुतः चक्षुः एव रूपविषयकप्रत्यक्षज्ञानस्य कारणं न, अन्यत् किमपि इति। त्वग् इन्द्रियम् एव स्पर्शविषयकप्रत्यक्षज्ञानस्य कारणं न, अन्यत् किमपि इति। संस्कार एव समृद्धेः कारणं न, अन्यत् किमपि इति वा? तथा नास्ति इति अस्माभिः ज्ञायते।
अग्रे महोदय,
आं भगिनि,
अग्रे अपि पठतु महोदय, प्रथमं वाक्यम् अग्रिमपरिच्छेदस्य।
तर्हि मातृपदस्य अत्र तादृश सार्वत्रिक अर्थः न स्यात् खलु? एषु लक्षणवाक्येषु मातृपदस्य कश्चन विशिष्टः अर्थः भवेत्
महोदय, तावत् पर्यन्तं खलु इति
पर्यन्तम्। यथा भगिनी उक्तवती, भवती उक्तवती पूर्वं, त्रिषु लक्षणवाक्येषु मातृपदं प्रयुज्यमानः अस्ति, यथा चक्षुर्मातृग्राह्यत्वे सति गुणत्वं रूपस्य लक्षणं, त्वगिन्द्रियमातृग्राह्यत्वे सति गुणत्वं स्पर्शस्य लक्षणं, संस्कारमातृजन्यत्वे सति ज्ञानत्वं समृद्धेः लक्षणं। त्रिषु लक्षणवाक्येषु मातृपदं प्रयुज्यमानः अस्ति, परन्तु तस्य अर्थः कः, तस्य अभिप्रायः कः अत्र? एवं वा चक्षु एव रूपविषयकप्रत्यक्षज्ञानस्य कारणम्, अन्य किमपि नास्ति तव इन्द्रियम् एव स्पर्शविषयकप्रत्यक्षज्ञानस्य कारणं वा, अन्यत् किमपि नास्ति, संस्कार एव स्मृतेः कारणं न, अन्यत् किमपि इति वा प्रश्नः अस्ति. चक्षुः एव रूपगुणस्य प्रति कारणं वा, अन्यत् कोऽपि कारणम् अस्मिन् लोके नास्ति, जगति नास्ति तथैव तव इन्द्रियम् एव त्वगिन्द्रिय एव स्पर्शस्य कारणं वा, अन्यत् कोऽपि कारणं नास्ति. एवमेव संस्कार एव स्मृतेः प्रति कारणम्, अन्यत् किमपि कारणं नास्ति. एवमस्ति वा तस्य कथनेन मातृपदं प्रयुज्य तथा कुर्मः, तत् एवमस्ति वा, ते एकमेव कारणम् अस्ति वा तस्य गुणस्य प्रति, परन्तु वयं जानीमः तथा नास्ति यथा भगिनी अपि उक्तवती, असमवायिकारणनिमित्तकारणानि सन्ति. एवमपि अस्ति चेत् षड् प्रकारकः साधारणकारणानि प्रतिकार्यं प्रति सन्ति, यथा दिक्कः, कालः, ईश्वरी इच्छा, प्रयत्नः, कृतिः, प्राग्भावः. एतानि सर्वाणि कारणानि सर्वकार्यं प्रति, षड् कारणानि सर्वकार्याणि प्रति भवन्ति एव. अपि च असमवायिकारणनिमित्तकारणमपि भवन्ति. तथा मातृपदप्रयोजनेन एतस्मिन् लक्षणवाक्येषु केवलं एकः एव चक्षुः अथवा संसारः एव कारणम् अस्ति, तत् प्रायः न भवेत् तद् किञ्चित् मातृपदस्य अत्र किञ्चित् विशिष्ट अर्थः भवेत्. तत् किं भवति अग्रे वयं पठामः.
तत्र तर्हि मातृपदस्य अत्र तादृशसार्वत्रिकः अर्थः न स्यात् खलु इत्युक्ते किम्?
यथा मातृपदं प्रयुज्यामः तत् न तथा अर्थः नास्ति. तत्र अन्यत् किमपि अस्मिन् जगति यत्किमपि अस्ति, अन्यत् किमपि तस्य कारणत्वं तस्मिन् न भवेत्. किञ्चित् अत्र विशिष्ट अर्थः एव.
समीचीनं. सार्वत्रिक मातृपदेन अन्यत् किमपि न भवतु इति अर्थः न, अत्र विवक्षा तु किञ्चित् विशिष्टरूपेण भवति इति अस्ति. समीचीनमेव. रामप्रिया भगिनी अग्रे केनापि आगतं वा?
कृपया अत्र.
हा हा भगिनि
अस्य स्पष्टीकरणार्थं विद्याध्याय्यां लिखितम् अस्ति. अतः एवं समाधानं वाच्यं त्वगिन्द्रियम् एव चक्षुर्भिन्न भिन्नं ग्रन्थकर्तुः बुद्धौ वर्तते. चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अलक्ष्ये संख्यायाम् अस्ति इति भवति अतिव्याप्तिः. अतः तद्वारणाय त्वग् इन्द्रियजन्यप्रत्यक्षविषयत्वभाव एव लक्षणे निवेश्यः. संख्या च तादृशविषयत्व अभाववति न भवति इति न लक्षणे अतिव्याप्तिः. स्पर्शलक्षणे च त्वगिन्द्रियभिन्नं चक्षुः तज्जन्यप्रत्यक्षविषयत्व अभावः पूर्ववदेव संख्यायाम् अतिव्याप्तिवारणाय निवेश्यः. अतः रूपलक्षणे त्वगिन्द्रिय अग्राह्यत्वं, स्पर्शलक्षणे च चक्षुरिन्द्रिय अग्राह्यत्वं प्रवेश्यम् इति फलितार्थः. स्मृतिलक्षणे अपि संस्कारभिन्नम् इन्द्रियं विवक्षितं, तज्जन्यत्वभावं निवेश्य वक्ष्यमाणरीत्या अभिज्ञायम् अतिव्याप्ति निवार्यते इति सर्वे समञ्जसम्.
सर्वं समञ्जसम्.
सर्वं समञ्जसम्.
अत्र भगिनी भवती प्रतिपादयति वा करपत्रस्य सारांशः अस्ति अत्र परन्तु भवती भगिनी
पुस्तके वयं पठितवन्तः किल तदेव
आम् 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 अत्र ग्राह्य इति पदेन किं विवक्षितम् अस्ति
ग्राह्य चक्षुर्मात्र ग्राह्य इत्युक्ते चक्षुर् इन्द्रियेण एव तस्य इत्युक्ते गुणस्य इत्युक्ते रूपस्य ग्राह्यं ग्राह्यम् इति प्रत्यक्षज्ञानं भवति
प्रत्यक्षज्ञानं प्रत्यक्षज्ञानम् इत्यस्य इतोपि किञ्चित् विवरणम् अपेक्षते तत्र जन्यप्रत्यक्षविषयत्वम् इति अस्ति खलु तदेव ग्राह्यपदेन तदेव विवक्षितं भवति जन्यप्रत्यक्षविषयत्वम् इति इत्युक्ते इन्द्रियेण ग्राह्यः चक्षुषा ग्राह्यः त्वचा ग्राह्यः इत्युक्ते किं चक्षुः रूपं गृह्णाति वा त्वक् स्पर्शं गृह्णाति वा इत्युक्ते यथा यदि अहं कन्दुकं गृह्णामि इति वदामि चेत् तत्र भिन्न अर्थः अस्ति खलु किं गृह्यते ज्ञानम् इत्युक्ते विशिष्टविषयकज्ञानं गृह्यते इति कृत्वा जन्यप्रत्यक्षं जन्य इत्युक्ते इन्द्रियेण जन्यः इन्द्रियः इन्द्रिये कारणत्वम् अस्ति प्रत्यक्षे कार्यत्वम् अस्ति इन्द्रियं जनकः प्रत्यक्षं
जनकः इति जन्यता
जन्यं
प्रत्यक्षे
प्रत्यक्षं जन्यम् इति प्रत्यक्षे विषयिता अस्ति इत्युक्ते यत्किमपि भवतु रूपं वा स्पर्शः तद्विषयकप्रत्यक्षम् एव अत्र सूच्यते जन्यप्रत्यक्षविषयत्वम् अन्ततो गत्वा कश्चन विषयः भवेत् खलु घटः इति विषयः वा यत्किमपि दूरवाणी इति विषयः यत्किमपि भवतु तत् सम्बन्धप्रत्यक्षम् एव अस्माकम् अपेक्षितम् अस्ति तदेव अस्ति जन्यप्रत्यक्षविषयत्वम् इति अत्र अतिव्याप्तिः इत्युक्ते किं साधारणतया
लक्ष्येषु अपि लक्ष्ये अलक्ष्ये अपि भवति इति अतिव्याप्ति दोषः इति
परन्तु दोषः कथम् उदेति
यदा अस्मिन् उदाहरणे चक्षुः रूपमपि गृह्णाति अन्यलक्ष्ये अपि अस्ति चेत् तत् अतिव्याप्तिदोषः इति
समीचीनम् अन्येषु लक्ष्येषु अस्ति चेत् तत्र अतिव्याप्तिदोषः भवति समीचीनम् अस्तु अग्रे पठामः किञ्चित् विवरणेन सर्वम् अस्ति अस्तु सुनील् महोदय
अत्र रूपस्य लक्षणं किं तदेव
आम् आम् आम्
रूपस्य लक्षणं किमुक्तं चक्षुर्मात्रग्राह्यो गुणो रूपं किमर्थं तथा उक्तम् इति चेत् मात्रपदं किमर्थं निवेशितम् इति बोध्यं चेत् प्रथमतया मात्रपदं नास्ति इति चिन्तितम् चक्षुर्मात्रो गुणो चक्षुर्ग्राह्यो गुणो रूपम् इति लक्षणं भवति तर्हि चक्षुरिन्द्रियेण यो गुणः गृह्यते रूपं विहाय तेषु सर्वेषु गुणेषु अतिव्याप्तिः भवति तादृशाः गुणाः अनेके सन्ति सङ्ख्या परिमाणं पृथक्त्वं संयोगः विभागः इत्येषु सर्वेषु अतिव्याप्तिः अतः चक्षुर्ग्राह्यत्वे सति गुणत्वम् इत्येतावदेव उक्तं चेत् केवलं रूपे न एतेषु पञ्चसु अपि गुणेषु लक्षणसमन्वयः भवति रूपं वर्जयित्वा एतत् सर्वम् अलक्ष्यमिति कारणेन तेषु समन्वयः भवति चेत् अतिव्याप्तिः अस्य कथनार्थं ग्रन्थे उक्तं चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अलक्ष्ये सङ्ख्यायामस्ति इति भवति अतिव्याप्तिः जन्यप्रत्यक्षविषयत्वम् इत्युक्ते ग्राह्यत्वं चक्षुरिन्द्रियेण यत् प्रत्यक्षज्ञानं जायते तस्य ज्ञानस्य विषयः रूपं भवति न केवलं रूपम् अपि तु सङ्ख्या परिमाणं पृथक्त्वं संयोगः विभागः इति सर्वे अपि नाम येषु सर्वेषु गुणेषु चक्षुरिन्द्रिय जन्यप्रत्यक्षविषयत्वं वर्तते अनेन च अतिव्याप्तिः पुनः अहम् एकैकवाक्यं पठित्वा वदामि रूपस्य लक्षणं किमुक्तम् अत्र पुनः रूपस्य लक्षणं पश्यामः चक्षुर्मात्रग्राह्यो गुणः रूपम् इति अत्र रूपस्य लक्षणमस्ति चक्षुर्मात्रग्राह्यः गुणः रूपमिति किमर्थं तथा उक्तमिति चेत् मातृपदं किमर्थं निवेशितम् इति बोध्यं चेत् प्रथमतया मातृपदं नास्ति इति चिन्त्यत अत्र मातृपदस्य उपयोगं किम् अस्ति इति अतः प्रथमं मातृपदं विहाय कथं लक्षणवाक्यं भवति इति पश्यामः चक्षुर्ग्राह्यो गुणोरूपम् इति लक्षणं भवति मातृपदं नास्ति चेत् तर्हि चक्षुरिन्द्रियेण यः गुणः गृह्यते रूपं विहाय तेषु सर्वेषु गुणेषु अतिव्याप्तिः भवति अतः मातृपदं नास्ति चेत् केवलं चक्षुर्ग्राह्यो गुणः रूपम् इति वदामः चेत् चक्षुरिन्द्रियेण रूपं विहाय अन्य गुणेषु अपि ग्राह्यं भवति चक्षुरिन्द्रियेण अतः तत्र तस्मिन् लक्ष्येषु अतिव्याप्तिः भवति तादृशाः गुणाः अनेके सन्ति सङ्ख्या परिमाणं पृथक्त्वं संयोगः विभागः इत्येषु सर्वेषु अतिव्याप्तिः अतः रूपं विहाय अन्यगुणेषu चक्षुषा अतिव्याप्तिः भवति एतस्मिन् वाक्ये अतः चक्षुर्ग्राह्यत्वे सति गुणत्वम् इत्येतावदेव उक्तं चेत् केवलं रूपे न एतेषु पञ्चसु अपि गुणेषु लक्षणसमन्वयः भवति अतः पुनः तदेव चक्षुर्ग्राह्यत्वे सति गुणत्वम् इति केवलं तदेव वदामः चेत् केवलं रूपेण अन्यगुणेषु अपि रक्षणसमन्वयः भवति
इत्युक्ते अतः चक्षुग्राह्यत्वे सति गुणत्वम् इत्युक्ते तत्र कति दलानि सन्ति तस्मिन् वाक्ये
दलद्वयमेव
दलद्वयमेव समीचीनं
वयं दलत्रयं स्वीकृतवन्तः पूर्वं रूपं वर्जयित्वा एतत् सर्वम् अलक्ष्यम् इति कारणेन तेषु समन्वयः भवति चेत् अतिव्याप्तिः अतः पुनः रूपं त्यजामः चेत् तत्र पुनः अन्य का तेषु समन्वयः भवति इति तत्रापि अतिव्याप्तिः भवति अस्य कथनार्थं ग्रन्थे उक्तं चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अलक्ष्ये सङ्ख्यामस्ति इति भवति अतिव्याप्तिः अतः तत्र ग्रन्थे किम् आसीत् तदेव पुनः अत्र अस्ति चक्षुरिन्द्रियजन्यप्रत्यक्ष विषयत्वम् अलक्ष्ये सङ्ख्यामस्ति इति अतिव्याप्तिः जन्यप्रत्यक्षविषयत्वम् इत्युक्ते ग्राहित्वम् अत्र वाक्ये जन्यप्रत्यक्षं जन्यप्रत्यक्षविषयत्वं किम् इति अस्ति, अत्र ग्राह्यत्वम् इति. चक्षुरिन्द्रियेण यत् प्रत्यक्षज्ञानं जायते तस्य ज्ञानस्य विषयः रूपं भवति. अतः चक्षुरिन्द्रियेण रूपस्य ज्ञानं भवति इति, अतः रूपमेव अत्र विषयः. न केवलं रूपम् अपि तु सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः इति सर्वे अपि. अतः केवलं चक्षुरिन्द्रियेण ज्ञानम् इत्युक्ते केवलं रूपं न, अन्य गुणाः, सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः इति अन्यगुणाः अपि तत्र सन्ति. नाम एषु सर्वेषु गुणेषु चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वं वर्तते. अतः अत्र अन्य गुणेषु अपि चक्षुरिन्द्रिय जन्यप्रत्यक्षविषयत्वम् अथवा ग्राह्यत्वम् अस्ति. अतः तत्र अतिव्याप्तिः, अत्र अन्येषु लक्ष्येषु अतिव्याप्तिः भवति, मात्रपदस्य उपयोगं न कुर्मः चेत्.
बहु समीचीनं, समीचीनं महोदय. अत्र यदि वयं किं चित्ररूपेण वर्णयामश्चेत् वर्तुलम् इति सर्वे जानन्ति खलु, सर्कल्स् इति. एकस्मिन् वर्तुले चक्षुर्ग्राह्यगुणाः सन्ति इति चिन्तयन्तु कृपया. एकस्मिन् वर्तुले रूपम् अपि तु पञ्चगुणाः, सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः इत्यादयः. अपरस्मिन् वर्तुले त्वगिन्द्रियग्राह्यगुणाः इत्युक्ते स्पर्शः अपि अस्ति, सङ्गमभागः इति मध्ये सन्ति खलु, इण्टर्सेक्षन् इति, तत्र के के भवन्ति सुनील महोदय?
तत्र त्वगिन्द्रियेण किं भवति, अनन्तरं चक्षुरिन्द्रियेण किं भवति, अत्र सङ्ख्या इति भवति, चक्षुरिन्द्रियेण ग्राह्यं भवति, अनन्तरं त्वगिन्द्रियेण
पञ्चगुणाः सन्ति खलु मध्ये, इण्टर्सेक्षन् इति यत् अस्ति, सामान्यभागः अस्ति खलु मध्ये, इण्टर्सेक्षन् आफ् टु सर्कल्स् इति अस्ति खलु, तत्र सामान्यभागे सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः इत्यादयः सन्ति, परन्तु तस्मात् बहिः चक्षुः सम्बन्धित वर्तुले केवलं रूपम्. त्वगिन्द्रिय त्वग् सम्बन्धित वर्तुले सामान्यभागात् बहिः स्पर्शः एव खलु. इदानीं स्पष्टं खलु यत् अहं वक्तुम् इच्छामि, स्पष्टं वा?
आम् आम् आम्. अत्र तत्र रूपं चक्षुषा एव अस्ति, अतः
समीचीनम् इत्युक्ते मध्ये यः भागः अस्ति, मध्ये ये गुणाः सन्ति ते चक्षुषा ग्राह्याः अपि तु त्वचा ग्राह्याः इत्येव विवरणं खलु. केवलं चित्ररूपेण वदामश्चेत् कथं, यदा कदा चित्रम् अस्ति चेत् मनसि स्पष्टतया विशदी भवति खलु, तदर्थमेव मया एत चित्रेण उक्तं. परन्तु अग्रे पठतु, यत्किमपि प्रयोगं कर्तुं शक्नुमः चित्रेण वा किम् अक्षरेण वा किमपि केनापि उपायेन स्पष्टता भवेत्. तावदेव अस्तु अग्रे
भगिनि राजेन्द्र अस्मि बहु सम्यक्तया भवती उक्तवती वर्तुल् इत्युक्ते वेन् डायग्राम् अस्ति वा
हा वेन् डायग्राम् सर्कल्स् इति अस्ति खलु वेन् डायग्राम् माध्यमेन हा मम बहु किम् उपकारकः अभवत् वेन् डायग्राम् वर्णयित्वा तत्र गुणान् स्थापयामश्चेत् सम्यक्तया बोधः अवबोधः भवति
बहु सम्यक् अस्ति
धन्यवादः अस्तु अग्रे कस्य क्रमः वर्तनी भगिनी तदर्थम् इति आरभ्य भगिनी वर्तनी भगिनी
तदर्थं मातृशब्दस्य निवेशः कृतः अनेन किं भवति मातृशब्दस्य कथनेन अधुना यः चक्षुग्राह्यः गुणः सः कीदृशः इति चेत् तद्भिन्नेन अग्राह्यः इति स्यात् अस्माकं गुणः चक्षुग्राह्यः च तद्भिन्नेन्द्रियेण अग्राह्यः च एते पञ्चगुणाः सङ्ख्यापरिमाणं पृथक्त्वं संयोगः विभागः एते त्वगिन्द्रियेण अपि गृह्यन्ते यथा चक्षुरिन्द्रियेण गृह्यन्ते तथैव त्वगिन्द्रियेण अपि गृह्यन्ते किन्तु रूपं त्वगिन्द्रियेण न गृह्यते रूपं केवलं चक्षुरिन्द्रियेण गृह्यते अन्येन केनापि इन्द्रियेण न गृह्यते चक्षुर्भिन्नेन्द्रियेण अग्राह्यः स्यात् इति कथनेन तादृशः गुणः एव स्वीकरणीयः यः चक्षुरिन्द्रियेण गृह्येत अन्येन इन्द्रियेण न गृह्येत सङ्ख्यादयाः अन्येन इन्द्रियेण गृह्यन्ते इति कारणेन तेषां ग्रहणम् अधुना नास्ति ते च पञ्चगुणाः निवारिताः केवलं रूपं लक्षणवाक्ये समन्वितम् अतः मात्रशब्दः निविष्टः सङ्ख्यादीनां वर्णाय मात्रशब्दस्य निवेशः किं भवति अनेन किं भवति इति चर्चा मातृशब्दस्य कथनेन चक्षुग्राह्यगुणः सः कीदृशः इति चेत् तद्भिन्नेन अग्राह्यः इति स्यात् भिन्नगुणान् भिन्नलक्ष्याणि लक्ष्य अग्राह्यः अस्माकं गुणः चक्षुर्ग्राह्यः च तद्भिन्नेन्द्रियेण अग्राह्यः चक्षुग्राह्यः एव अन्येन्द्रियेण अग्राह्यः तदर्थं पञ्चगुणाः सङ्ख्यापरिमाणं पृथक्तयोगः विभागः त्वगिन्द्रियेण अपि गृह्यन्ते यथा चक्षुरिन्द्रियेण गृह्यन्ते तथैव त्वगिन्द्रियेणापि गृह्यन्ते किन्तु रूपं त्वगिन्द्रियेण न गृह्यते रूपं केवलं चक्षुरिन्द्रियेण गृह्यते अन्येन न गृह्यन्ते चक्षुर्भिन्नेन्द्रियेण अग्राह्यः स्यात् इति कथनेन तादृशः गुणः एव स्वीकरणीयः सारांशः चक्षुरिन्द्रियेण गृह्यते अन्येन्द्रियैः न गृह्यते
अत्र अन्येन इत्युक्ते किम् कस्य सूचनं
पञ्चगुणः संख्या परिमाणं प्रसक्तं संयोगः विभागः
न केन इन्द्रियेण त्वगेन्द्रियेण संख्या न केवलं चक्षुषा त्वचा अपि गृह्यते खलु
गृह्यते
तथैव परिमाणं पृथक्त्वम् इत्यादयः अपि परन्तु लक्षणम् इत्युक्ते किं दोषं विना लक्षणं भवेत् इत्युक्ते किम्
दोषं विना विना अतिव्याप्तिः विना
अतिव्याप्तिः इत्युक्ते अत्र अस्मिन् सन्दर्भे किम् अतिव्याप्तिः
पञ्चगुणः
अत्र चित्रं मनसि संस्थाप्य वदतु भगिनि
अन्य इन्द्रियेण अपि ग्रहणं भवति
इत्युक्ते त्वचा अपि गृह्यन्ते खलु
मात्रशब्दः उपयोगेन तत् दोषः निवारितः
कथम्
अतिव्याप्तिः निवारितः गुणः चक्षुर्ग्राह्यमात्रमेव
चक्षुषा एव ग्राह्यः भवेत् न तु त्वचा इति खलु तादृशं वदनेन तादृशेन वदनेन के के गुणाः बहिष्कृताः स्वगिन्द्रियग्राह्यगुणाः खलु वदतु भगिनी
स्पर्श इत्यादि
न परन्तु स्पर्शः तु चक्षुषा न गृह्यते खलु
न गृह्यते
रूपं रूपं तु चक्षुषा गृह्यते के गुणाः वारिताः इति प्रश्नः इत्युक्ते इत्युक्ते के गुणाः बहिष्कृताः इत्युक्ते एलिमिनेटेड्
रूपं केवलं चक्षुन्द्रियेण गृह्यते अन्येन अन्य इन्द्रियेण न गृह्यते रूपं
हा समीचीनं परन्तु चक्षुः अन्यान् गुणान् अपि गृह्णाति खलु तर्हि तेषां तद्दोषस्य निवारणं कथं भवति इति प्रश्नः
सङ्ख्यादयः अन्य इन्द्रियेण गृह्यन्ते इति कारणेन तेषां ग्रहणम् अधुना नास्ति सङ्ख्यादयः अन्येन इन्द्रियेण गृह्यन्ते इति कारणेन तेषां ग्रहणम् अधुना नास्ति
अधुना इत्युक्ते अधुना किं
मात्रशब्द
उपयोगेन ते गुण अतिव्याप्तिः निवार्या भवति, निवारितः निवारिता हा। अतः
अतः मात्रशब्दविशिष्टता उच्यते।
समीचीनं। मातृशब्दस्य प्रयोगेन केवलं रूपमेव गृह्यते, न रूपस्य रूपमेव अस्माकम् इष्टम् इष्टः गुणः, न तु अन्याः। अतः एव चक्षुषा अग्राह्यः इति उक्त्वा चक्षुषा क्षम्यतां त्वचा अग्राह्यः, त्वचा किम् अग्राह्यः भवति?
रूपम्
रूपम् अग्राह्यः भवति हा। तदुक्त्वा अतिव्याप्तिदोषः निवारितः, इत्युक्ते संख्यापरिमाणं पृथक्त्वं संयोगः विभागः तेषु विद्यमाना अतिव्याप्तिदोषः इदानीं तु नास्ति, निवारितः। अस्तु, स्पष्टम्? अत्र क्लेशः नास्ति खलु भगिनि? अस्तु, अग्रे लक्ष्मी भगिनी।
स्पर्शस्य आहत्य चक्षुर्मात्रग्राह्यो गुणो रूपम् इति वाक्ये मातृशब्दस्य कथनेन तात्पर्यं किमपि किमिति चेत् त्वगिन्द्रियेण न गृह्यते इति। मातृशब्दस्य अर्थः अन्यत् सर्वं न इति न, नाम रूपप्रत्यक्षे चक्षुरेव कारणम् इति न, अपि तु चक्षुर्भिन्नं यत् त्वगिन्द्रियं तेन त्वगिन्द्रियेण अस्माकं गुणः ग्राह्यः न स्यात्। अस्य कथनार्थं ग्रन्थे उक्तं यत् अतिव्याप्तेः निवारणार्थं त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभाव एव लक्षणे निवेश्यः। जन्यप्रत्यक्षविषयत्वम् इत्युक्ते ग्राह्यत्वम्, अतः त्वगिन्द्रियग्राह्यत्व अभावः इत्यर्थः। तादृश अभावः रूपे अस्ति किन्तु सङ्ख्यादिषु नास्ति, यतोहि त्वगिन्द्रियेण रूपं न गृह्यते किन्तु सङ्ख्या गृह्यते। तदर्थं ग्रन्थे सङ्ख्या च तादृशविषयत्व अभावती न भवति इति न लक्षणे अतिव्याप्तिः। सङ्ख्या त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभाववती न भवति, यतः सङ्ख्या त्वगिन्द्रियजन्यप्रत्यक्षज्ञानस्य विषयः भवति। अतः मातृशब्देन त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावः तस्य निवेशेन अतिव्याप्तेः वारणम्। अस्तु, अस्मिन् परिचये पुनः मातृपदं किमर्थं लक्षणवाक्ये निवेश्यः इति उक्तं, चक्षुर्रूपस्य लक्षणवाक्यमस्ति चक्षुर्मात्रग्राह्यो गुणो रूपम् इति। तत्र अत्र मातृशब्दस्य कथनेन किमर्थं तत्र मातृशब्दस्य पदं लक्षणवाक्ये अस्ति चेत् चक्षुर्भिन्न इन्द्रियाणि इति न, केवलं त्वगिन्द्रियेण न ग्राह्यते। मातृशब्दस्य अर्थः अन्यत् सर्वं न इति न, नाम रूपप्रत्यक्षे चक्षुरेव कारणमिति। रूपस्य ज्ञानं चक्षुरिन्द्रिय एव रूपस्य ज्ञानजन्यं भवति, अन्य कोऽपि कारणेन अन्यैः इन्द्रियैः द्वारा रूपस्य ज्ञानं न भवति इति, केवलं चक्षुरिन्द्रियेण एव तद् भवति। अतः मातृशब्दस्य तत्सूचनार्थं तत् मातृशब्दस्य निवेशनं लक्षणवाक्ये मातृशब्दः अस्ति, अपि तु चक्षुर्भिन्नं यत् त्वगिन्द्रियं तेन त्वगिन्द्रिये अस्माकं गुणः ग्राह्यः न स्यात्। अपि तु चक्षुर् त्वगिन्द्रियं चक्षुर्भिन्न इन्द्रियं त्वगिन्द्रियं स्वगिन्द्रियेण रूपं न ग्राह्यः इति तत् स्पष्टीकरणार्थं मातृशब्दस्य प्रयोगमस्ति. अस्य कथनार्थं ग्रन्थे उक्तं यत् अतिव्याप्तेः निवारणार्थं स्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः एव लक्षणे निवेश्यः. संख्या अन्य अन्याः गुणाः सन्ति, संयोगः, विभागः, पृथक्त्वं, ये गुणाः अपि त्वगिन्द्रियेण ग्राह्यः, चक्षुरिन्द्रियेण अपि ग्राह्यः. किन्तु यदि तत्र मातृत्वं नास्ति चेत् तत्र लक्षणवाक्ये अतिव्याप्तिदोषः भवति. इत्युक्ते लक्षणवाक्यस्य लक्ष्यं रूपम् अपि च अन्यगुणाः अपि भवन्ति. तद् निवारणार्थम् अत्र अतिव्याप्तेः निवारणार्थम् इति एतत् उक्तं, त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभाव एव लक्षणे निवेश्ये. इत्युक्ते रूपे विषयत्व अभावः अस्ति. कीदृशविषयः विषयत्व अभावः इत्युक्ते त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः इति अभावः रूपे अस्ति, अभावः आम् रूपे अस्ति. तत् लक्षणं स्पष्टीकरणार्थं मातृशब्दस्य प्रयोजनम्
इत्युक्ते अत्र वदतु भगिनि.
न अहम् अग्रे पठन्ती आरम्भं करोमि.
त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वं कुत्र अस्ति?
त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वं स्पर्शे अस्ति, अपि च संख्या, विभागः, संयोगः, पृथक्त्वं, परिमाणं सर्वे तेषु गुणेषु अपि अस्ति.
समीचीनम्.
अतः अतिव्याप्तिदोषः भवति यदि मातृपदं नास्ति चेत्. यदि केवलं लक्षणवाक्यं चक्षुर्ग्राह्यगुणः इति एव अस्ति चेत् तत्र कः गुणः चक्षुर्मात्रेण कस्य गुणस्य विषये एतत् उक्तमिति स्पष्टता नास्ति. तत्र अतिव्याप्तिदोषः भवति.
अत्र विषयत्व अभावः तद्विषये किञ्चित् वदतु भगिनि.
अस्तु, विषयत्व अभावः अस्तु विषयत्वं अस्तु ज्ञानस्य विषयम् अत्र किम् अस्ति इत्युक्ते रूपं, रूपे विषयत्वम् अस्ति, विषयत्वम् अस्ति इति वदामः. अस्तु, रूपे कीदृशविषयत्वम् इत्युक्ते प्रत्यक्षविषयत्वं प्रत्यक्षस्य जनकः कः इत्युक्ते चक्षुरिन्द्रियः.
समीचीनं. प्रत्यक्षं कीदृशम् इत्युक्ते रूपविषयकं प्रत्यक्षं खलु?
आं, रूपविषयकं प्रत्यक्षम्.
परन्तु अस्माकं संख्याविषयकं प्रत्यक्षं वा परिमाणविषयकं प्रत्यक्षम् एतत् सर्वं न इष्टं खलु? अतः वदतु भगिनि.
तत्र त्वगिन्द्रियजन्य प्रत्यक्षमपि अस्ति, चक्षुरिन्द्रियप्रत्यक्षविषयत्वमपि अस्ति, संख्यापरिमाणम्.
अतः अभावभाषया कथं वदामः?
अतः अभावः रूपस्य लक्षणे त्वकिन्द्रिय जन्यत्वं नास्ति
त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वं नास्ति रूपे
विषयत्वं नास्ति इति सूचनार्थं मातृपदमस्ति तत्र लक्षणवाक्यमात्रपदमस्ति
तत्र रूपे त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वं नास्ति इति कृत्वा तस्मिन् त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः अस्ति अतः एव चक्षुर्ग्राह्यत्वे सति त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावे सति गुणः रूपम् इति अस्ति लक्षणवाक्ये अग्रे भगिनि
जन्यप्रत्यक्षविषयत्वम् इत्युक्ते ग्राह्यत्वम् अतः त्वगिन्द्रियग्राह्यत्व अभावः इति अर्थः अत्र जन्यप्रत्यक्षविषयत्वम् अस्य पदस्य विवक्षा अस्ति इत्युक्ते ग्राह्यत्वं चक्षुर् इन्द्रियेण किं ग्राह्यत्वम् इत्युक्ते रूपं चक्षुरिन्द्रियं रूपं गृह्णाति इत्युक्ते इत्युक्ते ज्ञान चक्षुरिन्द्रियेण रूपस्य ज्ञानं चक्षुरिन्द्रियः रूपस्य ज्ञानं जनयति इति कृत्वा रूपे जन्यप्रत्यक्षविषयत्वम् इत्युक्ते ग्राह्यत्वम् अतः त्वगिन्द्रियग्राह्यत्व अभावः इत्यर्थः अस्तु रूपे ओ रूपे केवलं नो रूपे रूपे विषयत्वम् अस्ति जन्यप्रत्यक्षविषयत्वं रूपे यत् ग्राह्यत्वम् अस्ति तत् ग्राह्यत्वं त्वगिन्द्रियग्राह्य तस्मिन् तद् ग्राह्यत्वं तस्मिन् त्वगिन्द्रियग्राह्यत्व अभावः अस्ति इति अर्थः अस्तु तादृश अभावः रूपे अस्ति किन्तु सङ्ख्यादिषु नास्ति रूपे त्वगिन्द्रियग्राह्यत्व अभावः रूपे अस्ति किन्तु सङ्ख्यादि गुणेषु नास्ति यतोहि त्वगिन्द्रियेण रूपं न गृह्यते किन्तु सङ्ख्या गृह्यते त्वगिन्द्रियः अपि रूपं त्वगिन्द्रियः रूपं विहाय अन्यत् सर्वं गृह्णाति इत्युक्ते अन्यत् सर्वम् इत्युक्ते सङ्ख्यापरिमाणं पृथक्त्वं संयोगः विभागः पञ्चसु पञ्च पञ्चगुणाः त्वगिन्द्रिय अपि गृह्णाति चक्षुरिन्द्रिय अपि गृह्णाति तदर्थं ग्रन्थे सङ्ख्या च तादृशविषयत्व अभाववति न भवति इति न लक्षणे अतिव्याप्तिः अस्तु सङ्ख्यायां त्वगिन्द्रियविषयत्व अभाव सङ्ख्या त्वगिन्द्रियविषयत्व अभावति नास्ति इत्युक्ते सङ्ख्यायां त्वगिन्द्रियविषयत्वम् अपि विषयत्वम् अस्ति किन्तु विषयत्व अभाववति नास्ति
त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभाववति नास्ति इति
तद् इति न लक्षणे अतिव्याप्तिः मात्रपदेन अतिव्याप्तिः निवारितं भवति सङ्ख्या त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभाववति न भवति यतः संख्या त्वकिन्द्रिय जन्य प्रत्यक्ष ज्ञानस्य विषयः भवति. इदानीमेव उक्तं संख्या संख्यायां संख्यायां त्वकिन्द्रिय जन्य प्रत्यक्ष विषयत्वम् अस्ति. अतः तत् तादृशजन्य तादृश प्रत्यक्षविषयत्व अभावत् अभावति न भवितुमर्हति. अतः मातृशब्देन त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वभावः. मातृशब्दः चक्षुर्मात्रग्राह्यो गुणो रूपम्. अत्र मातृशब्दः केवलम् एतत् सूचयति त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः तत् सूचयति, न तु अन्यैः इन्द्रियैः न ग्राह्यम् इति तथा न.
समीचीनम् एव. इत्युक्ते त्वगिन्द्रियग्राह्यत्व अभावः रूपे भवेत् इति कृत्वा तादृश अभावपदम् उपयुक्तम् अस्ति. कथम् इत्युक्ते मातृपदेन त्वचा अग्राह्यः इति वदनेन अतिव्याप्तिः निवारितः भवति. समीचीनं भगिनि, एतावता स्पष्टं खलु?
आं भगिनि.
अस्तु, अग्रे राजेन्द्रमहोदय.
आम् आं भगिनि, स्पर्शस्य लक्षणे अपि तथा वा भगिनि?
आम् आम्.
स्पर्शस्य लक्षणे अपि तथा त्वग् इन्द्रियमातृग्राह्यः गुणः सङ्ख्यापरिमाणं पृथक्त्वं संयोगः विभागः एते सर्वे अपि त्वग् इन्द्रियेण गृह्यन्ते इति कारणेन त्वग् इन्द्रियग्राह्यम् इति केवलम् उक्तं चेत् तेषु पञ्चसु अतिव्याप्तिः. किन्तु त्वग् इन्द्रियमातृग्राह्यं स्यात् तद् भिन्न इन्द्रिय अग्राह्यः स्यात् इति उच्यते चेत् तद् भिन्नं किम्? चक्षुरिन्द्रियम् एव. चक्षुरिन्द्रियेण एते पञ्चगुणाः गृह्यन्ते, स्पर्शश्च न गृह्यते. अतः मातृशब्देन चक्षुरिन्द्रियम् इति विवक्षा. चक्षुरिन्द्रियेण न इत्यस्य निवेशेन पञ्चानाम् अपि अतिव्याप्तिः वार्यते. त्वग् इन्द्रियमातृग्राह्यगुणः इत्यस्य कथनस्य त्वग् इन्द्रियग्राह्यत्वे सति चक्षुरिन्द्रिय अग्राह्यः यः गुणः स एव स्पर्शः इति एव तात्पर्यम्. अस्य कृते ग्रन्थे च उक्तं, स्पर्शलक्षणे च त्वग् इन्द्रियभिन्नं चक्षुः तज्जन्यप्रत्यक्षविषयत्व अभावः पूर्ववत् एव सङ्ख्यायाम् अतिव्याप्तिवारणाय निवेशः. चक्षुषा यत् प्रत्यक्षज्ञानं जायते तस्य ज्ञानस्य विषयः स्पर्शः न भवति इति कृत्वा चक्षुषा जन्यप्रत्यक्षविषयत्वं स्पर्शे नास्ति, तस्य च प्रत्यक्षविषयत्व अभावः स्पर्शे अस्ति. सङ्ख्यायां तादृशः अभावः नास्ति यतोहि सङ्ख्या चक्षुषा गृह्यते. अथ मातृशब्देन तज्जन्यप्रत्यक्षविषयत् अभावः स्पर्शलक्षणवाक्ये निवेश्यते चेत् सङ्ख्यादीनाम् अतिव्याप्तिवारणं सिद्धम्. एतस्मिन् परिच्छेदे यथा उपरि चक्षुरिन्द्रिय कृते लिखितमासीत् तत् किञ्चित् विपरीतम् अत्र तर्कः अस्ति. यथा चक्षुर्मात्र ग्राह्ये तत् त्वग् इन्द्रिय अग्राह्यः यः गुणः तथैव अत्र त्वग् इन्द्रियग्राह्यगुणः स्पर्शः सः गुणः चक्षुर् अग्राह्यगुणः अस्ति. त्वग् इन्द्रियग्राह्यगुणाः तु स्पर्शमस्ति, परन्तु तत्र संख्या परिमाणं पृथक्त्वं संयोगः विभागः एते सर्वे अपि त्वग् इन्द्रियेण गृह्यन्ते. ततः चक्षुषा अपि परिमाणं संख्या परिमाणं प्रसक्तं संयोगः विभागः गृह्यन्ते परन्तु यथा मातृ पदं न निवेश न उपयुज्यामः तत्र निष्कासयामः तथा तत्र तु अतिव्याप्तिः भवति यथा यथा तत्र त्वग् इन्द्रियग्राह्यं यथा वदामः तत् अतिव्याप्तिः भवति यतः यथा सङ्ख्यापरिमाणं पृथक्त्वं संयोगः विभागः सर्वे अपि चक्षुषा अपि गृह्यन्ते त्वग् इन्द्रियेण अपि गृह्यन्ते तत्र पञ्चसु गुणेषु अतिव्याप्तिः भवति किन्तु त्वग् इन्द्रियं मातृग्राह्यं स्यात् यथा मातृ पदम् उपयुज्य तत् वदामः त्वग् इन्द्रियं मातृग्राह्यं स्यात् तत् तद् भिन्न भिन्न इन्द्रिय ग्राह्या यः स्यात् तत् तद् भिन्नं किं चक्षु एव यथा तत् वदामः तद् भिन्न इन्द्रिय अग्राह्या यः गुणः स्यात् तत् इत्युक्ते तस्य तात्पर्यम् अस्ति चक्षुरिन्द्रियम् एव चक्षुरिन्द्रिय अग्राह्य गुणः तु स्पर्शः अस्ति तथा तत्र अतिव्याप्तिः वारयामः तत् यथा त्वग् इन्द्रियेण स्पर्शः ग्राह्यते त्वग् इन्द्रियेण एव स्पर्शः ग्राह्यते चक्षुरिन्द्रिये तत् स्पर्शं न ग्राह्यते तत्कारणात् तत् तस्य अतिव्याप्तिः न भवति चक्षुरिन्द्रियेण एते पञ्चगुणाः गृह्यन्ते स्पर्शश्च न गृह्यन्ते तथा इदानीमेव उक्तं यथा चक्षुरिन्द्रियेण ये सङ्ख्यापरिमाणं पृथक्त्वं संयोगः विभागः सर्वे इन्द्रियाणि सर्वे गुणाः गृह्यन्ते परन्तु स्पर्शं न गृह्यन्ते तथा मातृशब्देन चक्षुरिन्द्रियम् इति वीक्षते यथा त्वग् इन्द्रियमात्रग्राह्यगुणः यथा वदामः तत्र अस्माकं विवक्षा अस्ति चक्षुरिन्द्रिय अग्राह्य गुणः तत् चक्षुरिन्द्रियेण न इत्यस्य निवेशेन पञ्चानामपि अतिव्याप्तिः वार्यते यथा पञ्चगुणाः यत्र अतिव्याप्तिः भवति यथा मातृशब्दः न प्रयुज्यामः तत् मातृशब्दप्रयोजनेन तत् पञ्चगुणेषु अतिव्याप्तिः निवार्यते त्वग् इन्द्रियमातृग्राह्यगुणः इत्यस्य कथनस्य त्वग् इन्द्रग्राह्यत्वे सति चक्षुरिन्द्रिय अग्राह्य यः गुणः सः एव स्पर्शः इत्येव तात्पर्यं यथा अत्र पुनश्च तत् लिखितमस्ति त्वग् इन्द्रियमातृग्राह्यगुणः यथा वदामः तत् कथनस्य तात्पर्यम् अस्ति त्वग् इन्द्रियग्राह्यत्वे सति चक्षुरिन्द्रिय अग्राह्य यः गुणः अस्ति सः गुणः स्पर्शः तत्र चक्षुरिन्द्रिय अग्राह्यगुणः स्पर्शः अस्ति तत्कारणात् तत्र कोऽपि अतिव्याप्तिः न अस्ति अस्य कृते ग्रन्थे च उक्तं स्पर्शलक्षणे च त्वग् इन्द्रियभिन्न भिन्नं चक्षुः यथा त्वग् मात्र शब्दप्रयुज्यामः तत्र तस् अभिप्रायः अस्ति स्पर्शलक्षणे त्वग् इन्द्रियभिन्नं यः इन्द्रियम् अस्ति तत् चक्षुः एव तस्य तत्र विवक्षा अस्ति तज्जन्यप्रत्यक्षविषयत् अभावः तत् तज्जन्य चक्षुषा जन्यप्रत्यक्षविषयत् अभावः तु सङ्ख्यादीनां गुणेषु क्षम्यतां स्पर्श एव तत्र अभावः अस्ति स्पर्श अन्यत् गुणेषु तु तत्र तत् प्रत्यक्षं भवति चक्षुषा अथवा तत् एकनिमिषः भगिनि किञ्चित् अत्र स्पर्शलक्षणे च त्वग् इन्द्रियभिन्नं चक्षुः तज्जन्य प्रत्यक्षविषयत् अभावः पूर्वदेव सङ्ख्यायाम् अतिव्याप्ति वारणाय निवेशः तत् पुनः तथैव उक्तं यत् त्वग् इन्द्रियभिन्नं चक्षुः यथा अग्राह्यत्वम् अस्ति तत् स्पर्शे एव अस्ति तत् मातृशब्दं प्रयुज्य कुर्मः चेत् तत्र सङ्ख्यायाम् अति यत् पञ्चसु गुणेषु यत् अतिव्याप्तिः भवति तत् न भवति तत् मातृपदनिवेशाय निवेशनेन चक्षुषा यत् प्रत्यक्षज्ञानं जायते तस्य ज्ञानस्य विषयः स्पर्शः न भवति यथा चक्षुषा अग्राह्यत्वम् अस्ति तत्र स्पर्शे प्रति तत् तत् स्पर्शं न गृह्णाति इति कृत्वा चक्षुषा जन्यप्रत्यक्षविषयत्वं स्पर्शे नास्ति तस्य च चक्षुषा तत् प्रत्यक्ष प्रति प्रत्यक्षविषयत्व अभावः अस्ति स्पर्शे चक्षुषा तत्कारणात् तत् मातृपद प्रयुज्य तत् स्पष्टं भवति तौगिन्द्रियमातृग्राह्यगुणः स्पर्शः सङ्ख्यायां तादृश अभावः न अस्ति अन्येषु पञ्चषु गुणेषु तत् तादृशी अभावः चक्षुषा जन्य प्रत्यक्षविषयत् अभावः तादृशी अभावः तत् तत् नास्ति यतोहि सङ्ख्यापरिमाणं संयोगः विभागः पृथक्त्वं तत्तु तौगिन्द्रियेण अपि ग्राह्यते चक्षुरिन्द्रियेण अपि ग्राह्यते तथा तत्कारणात् तत्र मातृपदं तत् प्रयुज्य तत् लक्षणवाक्ये त्वग् इन्द्रियमात्र ग्राह्यगुणः स्पर्शः तत् 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 अतिव्याप्ते वार्यते अपि च त्वग् इन्द्रियेण मातृकः गुणः ग्राह्यते तत् अपि स्पष्टं भवति स्पर्श एव तत् ततः ग्राह्यते
समीचीनं महोदय अत्र अस्य कृते ग्रन्थे च उक्तं स्पर्शलक्षणे चत्वगिन्द्रियं भिन्नं चक्षुः तज्जन्यप्रत्यक्षविषयत्वा अभावः पूर्ववदेव सङ्ख्यायाम् अतिव्याप्तिवारणाय किं निवेश्यः वा कः निवेश्यः
यथा चक्षुर् यथा मातृपदम्
अस्मिन् वाक्ये किम् अस्ति अस्मिन् वाक्ये मातृपदम् अस्ति वा
तज्जन्यप्रत्यक्षविषयत अभावः अभावः यः चक्षुषा अस्ति तथा सङ्ख्यामादि ये गुणेषु अतिव्याप्तिः भवति तत् न भवति यथा चक्षुः तज्जन्यप्रत्यक्षविषयत अभावः यथा चक्षुषा स्पर्श विषयत अभावः अस्ति स्पर्शे प्रति
तज्जन्य इत्युक्ते केन जन्य
चक्षुषा जन्य यः ज्ञानं यस्य विषयत्वम् अस्ति तत्र यस्मिन् विषयत्वम् अस्ति तत्र तत्र स्पर्शे नास्ति तत् कारणात् तत्र व्याप्तिदोषः न भवति
हा समीचीनमेव इत्युक्ते चक्षुषाग्राह्यत्व अभावः स्पर्शे अस्ति इति भवेत् तादृश अभावः स्पर्शे भवेत् येन अतिव्याप्तिः निवारिता भवति अतः मातृपदम् उपयुक्तम् अस्ति अस्तु समीचीनम् अग्रे सुनील रामप्रिया भगिनी
तथैव संस्कारमात्रजन्यम् इत्युक्ते संस्कारभिन्नं यत्किञ्चित् विशिष्टं विवक्षितं भवति संस्कारभिन्नं सर्वमपि स्वीकरणीयम् इति नास्ति तद्विशिष्टम् इति इन्द्रियं तज्जन्यत्वभावः स्मृतौ वर्तते किन्तु प्रतिज्ञाभिज्ञायां नास्ति अतः संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति लक्षणवाक्ये संस्कारमात्रजन्यम् इत्यस्य फलितार्थः संस्कारजन्यत्वे सति इन्द्रिय अजन्यं यत् ज्ञानम् अनेन स्मृतेः समन्वयः प्रतिज्ञाभिज्ञायाः च निवारणम् अत्र यदा वयं पूर्वं दृष्टवन्तः त्वग् अनन्तरं रूपलक्षणवाक्ये इदानीं संस्कारमात्रजन्यम् संस्कारमात्र ज्ञानं स्मृतिः इति अस्माकं लक्षणवाक्यम् अस्ति.
संस्कारमात्र
ज्ञानं स्मृतिः,
जन्यं ज्ञानं खलु,
जन्यं ज्ञानं स्मृतिः इति अस्माकं लक्षणवाक्यं.
कस्य लक्षणवाक्यं? कस्य लक्षणवाक्यं?
स्मृतेः
लक्षणवाक्यं.
संस्कारमात्रजन्यम् इत्युक्ते संस्कारभिन्नं यत् किञ्चित् विशिष्टं विवक्षितं भवति. यदा वयं संस्कारमात्रजन्यम् इति वदामः चेत् तत्र संस्कारभिन्नं केवलं संस्कारः न, तद् भिन्नं यत्किञ्चित् विशिष्टम् इत्युक्ते अन्ये किमपि कारणं भवति इति वा विवक्षितं भवति.
यथा रूपलक्षणे वा स्पर्शलक्षणे आसीत् खलु विशिष्टम् इन्द्रियम् इन्द्रियेण अग्राह्यः इति आसीत् खलु तत्र विवक्षा, तथैव अत्रापि संस्कारमात्रजन्यम् इत्यनेन मातृपदेन किम केनापि विशिष्टेन विशिष्ट इन्द्रियेण विशिष्टकारणेन जन्यत्वम् अजन्यत्वम् इति अर्थः. अग्रे पठतु भगिनि, पश्यामः.
संस्कारभिन्नं सर्वमपि स्वीकरणीयम् इति नास्ति. संस्कारात् किमपि भिन्नम् अस्ति तत् सर्वमपि वयं स्वीकरणीयं कारणरूपेण इति नास्ति. तद् विशिष्टम् इति इन्द्रियं, विशिष्ट इन्द्रियं किम् अस्ति तदेव वयं स्वीकर्तुं शक्नुमः.
शक्नुमः इति न, अत्र तु इन्द्रियस्य सूचनम् एव, यथा रूपलक्षणे त्वगिन्द्रियस्य सूचनम्, त्वगिन्द्रियेण यः ग्राह्य त्वगिन्द्रियेण न ग्राह्यः इति अर्थः अस्ति खलु तत्र मातृपदेन. तथैव अत्रापि विशिष्ट इन्द्रियेण न जन्यः इति अर्थः. संस्कारमात्र इत्यनेन यत्किमपि इति नास्ति तत्र, यत् येन केनापि कारणेन इति नास्ति अर्थः. अत्रापि विशिष्टः अर्थः अस्ति, विशिष्टसूचनम् अस्ति. आम्
आम् एकः प्रश्नः स्पष्टीकरणार्थं, स्मृतौ स्मृति स्मृतिसंस्कारेण एव जन्यः, न तु इन्द्रियेण स्मृति स्मृतेः जन्यम् इन्द्रियेण न भवति. किन्तु प्रत्यभिज्ञा इन्द्रियेण अपि भवितुम् अर्हति.
अर्हति इति न, इन्द्रियेण भवति अपि तु संस्कारेण. अग्रे रामप्रिया भगिनी एव वदतु.
अस्तु,
तस्य सम्पूर्ण प्रतिपादनं न अभवत् भगिनी, किञ्चित् सा वदतु, तदनन्तरं चर्चयामः.
अस्तु भगिनि, धन्यवादः.
भगिनी वदतु भगिनि.
आम् आम् तद् जन्यत्व अभावः स्मृतौ वर्तते किन्तु प्रतिज्ञाभिज्ञायां नास्ति. अत्र तद् जन्यत्व अभावः संस्कारजन्यत्व संस्कार एव किल.
आमां
संस्कारं जन्यत्व अभावः स्मृतौ वर्तते.
पूर्वतनवाक्यं किं? पूर्वतनवाक्यं किं?
तद् विशिष्टम् इति इन्द्रियं, तदेव ममापि अभावः इति आगच्छति, अतः एव भ्रमः जातः.
तद् इत्युक्ते इन्द्रियम्,
इन्द्रियम् इन्द्रियजन्यत्व अभावः स्मृतौ वर्तते.
इत्युक्ते किं तस्य विश्लेषणं करोतु कृपया.
मृतौ
इन्द्रियजन्यत्व अभावः इत्युक्ते किम्?
इन्द्रियेण जन्यत्व अभावः. इन्द्रियेण जन्यं किं जन्यम्? इन्द्रियेण
वाक्यं किम् अस्ति? इन्द्रिये तज्जन् इन्द्रियजन् इन्द्रियजन्यत्वाभावः स्मृतौ वर्तते किन्तु प्रत्यभिज्ञायां नास्ति इत्युक्ते किम्?
प्रत्यभिज्ञायां तद् किमपि जन्य
प्रथमं प्रत्यभिज्ञायाः किम् उदाहरणं ददातु भगिनि.
सोऽयं देवदत्तः इति वयं दृष्टवन्तः किल, तदेव
लौकिकप्रयोगेण भवती वदतु भगिनि. इत्युक्ते
पूर्वं
केनापि मेलनम् आसीत्, बहुभ्यः दिनेभ्यः अनन्तरं तस्य मेलनं पुनः भवति, तर्हि प्रथमं तु तस्य नामस्य स्मरणम् आसीत्, नामस्य स्मरणं भवति, ओ पूर्वं मेलनम् आसीत् तया सह इति स्मरणम् अस्ति खलु. स्मरणं कथं भवति? संस्कारेण भवति. प्रथमं तु अनुभवः खलु,
अनुभवः. आम् आम्, प्रथमम् अनुभवः.
परन्तु अनुभवः नष्टः जातः तदनन्तरम्, अनुभवस्य अनन्तरं तस्य नष्टः जातः. परन्तु एकमासानन्तरं पुनः तया सह मेलनं, तर्हि तस्याः नाम पुनः स्मृतं भवता, तर्हि संस्कारः अस्ति, संस्कारेण स्मृतिः जायते. परन्तु इदानीं तु भवती पश्यति, तामेव पश्यति, लता इति चिन्तयतु, लतां पश्यति. दर्शनं केन भवति, केन इन्द्रियेण भवति?
चक्षुरिन्द्रियेण
भवति इति कृत्वा कीदृशं ज्ञानम् अस्ति?
प्रत्यक्षज्ञानम्
अनुभवः अस्ति. अतः अत्र अस्मिन् प्रसङ्गे वा अस्मिन् दृष्टान्ते अनुभवः अस्ति, अपि तु स्मृतिः अस्ति खलु. द्वयोः मेलनेन प्रतभिज्ञा इति भवति खलु. इदानीं स्पष्टं वा? प्रतभिज्ञा प्रतभिज्ञां भवितुम् इन्द्रियस्य प्रयोगः इत्युक्ते चक्षुषप्रयोगः, अपि तु संस्कारस्य अपेक्षता अस्ति खलु. संस्कारः नास्ति चेत् स्मृतिः न भवति एव. पूर्वम् अनुभवः जातः, अतः संस्कारः जातः आत्मनि, संस्कारात् स्मृतिः अभवत् इदानीम्. परन्तु तस्य दर्शनमपि अस्ति, पुरतः सा अस्ति इति कृत्वा अनुभवः अपि अस्ति प्रतभिज्ञायां. सा एव लता, एषा एव लता इति वाक्यं खलु. अतः प्रतभिज्ञायाम् अनुभवः अपि तु स्मृतिः अस्ति. तर्हि स्मृतिः केन जायते?
स्मृतिः केन? संस्कारेण जायते.
संस्कारेण जायते. अनुभवः केन जायते?
अनुभवः
न, प्रत्यक्षज्ञानं केन जायते?
प्रत्यक्षज्ञानं चक्षुषा जायते,
चक्षुषा इन्द्रियेण जायते. परन्तु अत्र मातृपदं किमर्थम् उपयुक्तम् अस्ति स्मृतिलक्षणवाक्ये? इदानीं वदतु.
संस्कारेण एव जन्यं स्मृतिः इति विशिष्टरूपेण वदनम्. अतः किमर्थम् इत्युक्ते प्रतिज्ञां विज्ञायां अतिव्याप्तिदोषः भवति.
आम् आम्. कुत्र प्रतिज्ञायाम् अतिव्याप्तिदोषः जायते,
किमर्थम् इत्युक्ते तदपि तत्रापि संस्कारः अनुभवः प्रत्यक्षज्ञानम् एतत् तत्रापि अस्ति यदा वयं प्रत्यभिज्ञाम्.
एकनिमिषम्, अतिव्याप्तिः किमर्थम् इति वदतु.
स्मृतेः लक्षणवाक्ये यदा वयं स्मृतिः इति किं वदामः, तत्रापि संस्कारः इति अस्ति लक्षणवाक्ये वा यदा वयं प्रत्यभिज्ञा यदा वयं तत्रापि संस्कारः अनुभवः चक्षुषः अस्ति. द्वयोः स्थलयोः संस्कारः इति इण्टर्सेक्षन् अस्ति.
समीचीनं समीचीनं. प्रत्यभिज्ञा संस्कारेण जायते, परन्तु प्रत्यभिज्ञायाम् इन्द्रियस्य भागः अपि अस्ति खलु? परन्तु तत् न इष्टम् अस्माकम्. केवलं संस्कारेण यद् जायते तदेव इष्टम् अस्माभिः खलु? अतः अतिव्याप्तिनिवारणं भवेत्. कथम् कथं निवारितं भवति?
मात्र इति शब्दस्य उपयोगं कृत्वा संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति वयं वदामः चेत् तत्र प्रत्यभिज्ञायां अतिव्याप्तिः प्रत्यभिज्ञायेन अतिव्याप्तिः न भवति. तत्र नास्तु तृतीया.
अस्तु. इत्युक्ते प्रतिज्ञायाः प्रत्यभिज्ञायाः स्थितिः एव नास्ति खलु मातृपदेन? केवलं स्मृतिः एव तत्र. इदानीं स्पष्टं वा?
आम् स्पष्टं स्पष्टम्. आम्
अत्र संस्कारजन्यत्वे सति इन्द्रिय अजन्यत्वम् इत्युक्ते किम्?
संस्कारजन्यत्वे सति इन्द्रिय अजन्यज्ञानम् अजन्यम्. यदा संस्कारेण जन्यत्वे संस्कारेण यः जन्यः भवति, परन्तु इति न इन्द्रियेण अजन्यं यत् ज्ञानं तत्.
स्मृतिः इन्द्रियेण जन्यं वा?
परन्तु
प्रतिज्ञा इन्द्रियेण जन्या खलु? अतः एव मातृपदम्. इदानीं स्पष्टं वा?
आम् आम् आम्. धन्यवादः.
हा हा भगिनी, लक्ष्मी भगिनी इदानीं वदतु भगिनी, सन्देहः अस्ति वा?
आम् सन्देहम् अस्ति इत्युक्ते अस्तु उदाहरणत्वेन उदाहरणं स्वीकुर्मः चेत् अहम् आपणं गच्छामि, तत्र अहं कोऽपि पश्यामि, मम स्मृतेः आगच्छति अन्यस्मिन् दिने अपि एषः पूर्वं दृष्टमिति, तस्मिन् समये तत् स्मृतिः अपि प्रत्यभिज्ञा अपि इति खलु, तस्मिन् समये तदेव प्रतिज्ञा इति
तत्समये प्रतिज्ञा अस्ति तत्समये प्रतिज्ञा अस्ति
आम्
किमर्थं प्रतिज्ञा इत्युक्ते स्मृति अनुभवः मेलनम्
आम् आम् स्मृति अनुभवः मेलनम् अस्तु अपि च चक्षुरिन्द्रियेण यत् विषयग्राह्यकं तस्मिन् क्षणे अभवत् तदपि
तद् अपि इति न अनुभवः कथं स्मृति अनुभवस्य मेलनम् इति अस्ति अनुभवः कथं
प्रत्यक्षेण जायते अस्तु आम्
प्रत्यक्षेण
जायते तत्र इन्द्रियस्य इन्द्रियस्य इन्क्लूशन् अस्ति
कारणत्वम् अस्ति खलु
कारणत्वमस्ति आमामां
परन्तु तद् न इष्टम् अस्माकं स्मृतिभागः एव इष्टः अस्माभिः
अस्तु तत् यदि यदि अन्य कोऽपि दिने यदि एकाकी श्रुते स्मृतिपदं सैव महिला आगच्छति चेत् तत् केवलं स्मृति एव न तु प्रत्यभिज्ञा
पुनः वदतु भगिनि उदाहरणं
अन्यस्मिन् क्षणे अन्यस्मिन् दिने यदि स्मृतिपथं सा एव महिला स्मृतिपथम् आगच्छति चेत् तत् ऐ मीन् मनसि आगच्छति चेत् तत् तत् प्रत्यभिज्ञा न केवलं स्मृति
एव
तत्र प्रत्यक्ष साक्षात् प्रत्यक्षं नास्ति किन्तु
केवलम् उदेति आत्मनि उदेति केवलं संस्कारः तु अस्ति संस्कारः तु अस्ति परन्तु उद्बोधकेन जायते इत्युक्ते केवलं चिन्तनम् अस्ति तस्मिन् दिने मेलनम् अभवत् इति किमपि चिन्तनं केनापि कारणात् प्रायः किमपि चिन्तनम् आसीत् तस्य शाटिकाया तस्याः शाटिकायाः वर्णः वा किमपि तस्मात् स्मृतिः जायते तर्हि केवलं स्मृतिः इन्द्रियस्य कारणत्वं वा इन्द्रियस्य भागः एव नास्ति अत्र
तदा स्मृति
सन्निकर्ष एव नास्ति अस्तु समीचीनम् अग्रे सुनील् महोदय अतः एवं समाधान महोदय प्रश्नः अस्ति वा
प्रश्नः अत्र प्रत्यभिज्ञा इति गुणः वा न किल
न न न गुणः न गुणः न
स्मृतिः इति गुणः परन्तु अत्र
प्रतिज्ञा अपि ज्ञानम् प्रतिज्ञा इति ज्ञानम् इति कृत्वा प्रायः गुणः परन्तु चतुर्विंशतिगुणेषु प्रतिज्ञा इति विशिष्टरूपेण नास्ति केवलं बुद्धिः इति अस्ति खलु तत्र आत्मनि बुद्धिः बुद्धिः इति गुणः प्रत्यभिज्ञा अपि ज्ञानमेव परन्तु विशिष्टरूपेण ज्ञानं यस्मिन् अनुभवः अपि तु स्मृतिः अस्ति इति अनुभवः अपि तु स्मृतिः स्तः इति तदपि ज्ञानमेव वदतु महोदय
इदानीं पुस्तकात् पठामः
न न आम् पुस्तकात् वा पत्रात् अतः एवं समाधानं वाच्यम् इति पठित्वा सारांशरूपेण वदतु महोदय
महोदय उक्तवान् बुद्धि ज्ञानं प्रत्यक्षं प्रतिज्ञा एकसमानार्थं बोधते
अत्र चतुर्विंशतिगुणेषु बुद्धिः इति यः अस्ति सः अनुभवः वा स्मृतिः वा यत्किमपि भवितुमर्हति खलु भगिनि परन्तु वयं तु जानीमः यत् अनुभवः तु इन्द्रियेण जायते स्मृति तु संस्कारेण जायते सर्वं ज्ञानमेव परन्तु कारणं तु भिन्नं खलु अस्तु चलु महोदय
अतः एवं समाधानं वाच्यं त्वगिन्द्रियमेव चक्षुर्भिन्नं ग्रन्थकर्तुः बुद्धो वर्तते चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अलक्ष्ये सङ्ख्यायामस्ति इति भवति अतिव्याप्तिः अतः तद्वारणाय त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वम् अभावः एव लक्षणे निवेश्यः सङ्ख्या च तादृशविषयत्वाभावति न भवति इति न लक्षणे अतिव्याप्तिः स्पर्शलक्षणे च त्वगिन्द्रियं भिन्नं चक्षुः तज्जन्यप्रत्यक्षविषयत्वाभावः पूर्ववदेव सङ्ख्यायाम् अतिव्याप्तिवारणाय निवेश्यः अतः रूपलक्षणे त्वगिन्द्रिय अग्राह्यत्वं स्पर्शलक्षणे च चक्षुरिन्द्रिय अग्राह्यत्वं प्रवेश्यमिति फलितार्थः स्मृतिलक्षणेऽपि संस्कारभिन्न इन्द्रियं विवक्षितं तज्जन्यत्वाभावं निवेश्य वक्ष्यमाणरीत्या प्रत्यधिज्ञायां अतिव्याप्ति निवार्यते इति सर्वं समञ्जसम् अत्र पुनः तत्र इन्द्रियस्य विषये अस्ति अत्र
अस्माकं मूल शीर्षकं किम्
तत्रात्रि अस्ति अत्र मात्र पदेन स्मृतेः लक्षणवाक्ये किमस्ति इति संस्कारमात्रजन्ये इति अस्ति स्मृतेः लक्षणवाक्यम् अतः मात्रपदस्य पुनः तदेव वयं दृष्टवन्तः अत्र चक्षुरिन्द्रिय अथवा तु इन्द्रिय अपि अत्र चक्षुरिन्द्रिय मात्रं रूपम् इति अत्र वयं पूर्वम् इदानीं दृष्टवन्तः तत्र मात्रपदस्य उपयोगं न कर्तुं न कुर्मः चेत् तत्र सङ्ख्यायाम् अधिव्याप्तिः भवति इति एवं त्वगिन्द्रिये अपि मात्रपदस्य न चेत् तत्रापि स्पर्शने तत्र आवश्यकमिति
पुनः 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 त्वगिन्द्रे विषये
अत्र इदानीं त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः इति अस्ति अतः
स्पर्शे अस्ति वा रूपे अस्ति कुत्र अस्ति त्वगिन्द्रियजन्यविषयत्व अभावः
अभावः रूपे अस्ति
रूपे अस्ति
अतः चक्षुरिन्द्रियविषये अभावः रूपे नास्ति अन्यत्र अस्ति अतः अत्र स्पर्शलक्षणे त्वगिन्द्रिय भिन्नम् अस्ति चक्षुः अतः तज्जन्यप्रत्यक्षविषयत्व अभावः इति अस्ति अत्र
कुत्र कुत्र अस्ति अभावः विषयत्व अभावः कुत्र अस्ति, कस्य विषयत्व अभावः?
अत्र स्पर्शलक्षणे अत्र प्रत्यक्षविषयत्व अभावः चक्षुः इति.
न न सम्यक् भवान् अवगच्छति, परन्तु किञ्चित् सम्यक् रूपेण वदतु महोदय.
अत्र इत्युक्ते वयं भिन्नरीत्या वक्तुं शक्नुमः. एकं तु चक्षुरिन्द्रिय मात्रा इति उपयोगं कृत्वा रूपस्य लक्षणं वक्तुं शक्नुमः. अनन्तरं अग्राह्यम् इति उपयुज्य अन्य इन्द्रियस्य उपयोगं तत्र वाक्ये कर्तुं शक्नुमः. अतः अत्र स्पर्शलक्षणे किम् इत्युक्ते त्वगिन्द्रियभिन्नम् अस्ति चक्षुः. इत्युक्ते स्पर्शेण एव भवति
चक्षुषाग्राह्यः. अतः
एवमेव एकं ग्राह्यगुणः इति वदामः, अनन्तरम् अन्य इन्द्रियम् अग्राह्यगुणः इति वक्तुं शक्नुमः.
हा, परन्तु विषयत्व अभावः अपि अस्ति खलु लक्षणवाक्ये. तादृशं वदामश्चेत् किं भवति?
अत्र रूपस्य लक्षणे इति वदामः चेत् अत्र चक्षुर्मात्र ग्राह्यः गुणः रूपम् इति वदामः. अत्र अतः संज्ञादि गुणेषु अतिव्याप्तिः अस्ति, तद् निवारितः.
वर्धिनी भगिनी किञ्चित् सहायं करोति वा? तत्र विषयत्व अभावः कुत्र अस्ति इति द्वयोः लक्षणवाक्ययोः. भगिनी अस्ति वा? नास्ति. लक्ष्मी भगिनी
रूपे तज्जन्यविषयत्व अभावः इत्युक्ते यदि रूपमिति गुणं स्वीकुर्मः चेत् रूपे विषयत्वम् अस्ति. कीदृशविषयत्वम् इत्युक्ते प्रत्यक्ष चक्षुरिन्द्रियेण जन्यप्रत्यक्षविषयत्वं रूपे अस्ति. किन्तु अन्यगुणेषु अन्येषु गुणेषु इत्युक्ते संख्या क्षम्यतां, किन्तु त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वं रूपे नास्ति, तदेव विषयत्व अभावः.
समीचीनं समीचीनम्. इदानीं सुनील् महोदय, त्वगिन्द्रविषये वदतु कृपया स्पर्शलक्षणे.
स्पर्शलक्षणे त्वगिन्द्रिय त्वगिन्द्रियजन्यप्रत्यक्ष विषयत्व अभावः चक्षुः अस्ति किल, तदेव
त्वगिन्द्रियजन्यप्रत्यक्ष अभावः कुत्र अस्ति?
चक्षुः
चक्षुषि किम् अस्ति? चक्षुषि अस्ति वा अभावः? राजेन्द्रमहोदय
भगिनी, अत्र यदा वदामः त्वग् इन्द्रियजन्य प्रत्यक्षविषयत अभावः रूपे अस्ति.
हा, इदानीं स्पर्शलक्षणे किं भवति इति प्रश्नः.
चक्षुरिन्द्रियजन्यप्रत्यक्ष विषयत अभावः स्पर्शे अस्ति.
महोदय, सुनील महोदय,
परन्तु अहं त्वगिन्द्रियस्य इति उक्तवान्, अतः
परन्तु चक्षुषि वा त्वचि किमपि नास्ति खलु,
गुणे एव
गुणे अस्ति खलु,
त्वगिन्द्रियजन्य प्रत्यक्षविषयत्वाभावः
रूपे अस्ति इत्युक्ते त्वगिन्द्रियजन्य प्रत्यक्षविषयत्वं कुत्र अस्ति, कुत्र कुत्र अस्ति त्वगिन्द्रियजन्य प्रत्यक्षविषयत्वम् इत्युक्ते त्वचा किं किं गृह्यते इति प्रश्नः खलु, विषयः कः इति प्रश्नः सरलतया वदामश्चेत्
स्पर्शे अस्ति, संख्यायाम् अस्ति, अतः अभावः रूपे अस्ति,
रूपे अस्ति, स्पर्शलक्षणे
स्पर्शलक्षणे
चक्षुरिन्द्रियजन्य प्रत्यक्ष विषयत्व अभावः कुत्र अस्ति,
स्पर्शे अस्ति,
स्पर्शे अस्ति, यतोहि
केवलं स्पर्शे एव किल, अतः
स्पर्शः न गृह्यते चक्षुषा इति कृत्वा खलु, अस्तु स्पष्टं वा इदानीं,
स्पष्टं परन्तु वाक्यमेव किञ्चित् विपरीतं,
परन्तु विषयत्वं विषयत्वा अभावः तत्सर्वं स्पष्टं वा,
विषयत्वं तत्र इदानीं गुणे एव इति
स्मरामि, गुणः एव विषयः, अहं घटं पश्यामि चेत् घटः एव विषयः खलु, रूपं पश्यामि रूपः एव विषयः खलु, तादृशम् अस्तु, तर्हि प्रश्नः अस्ति वा, तर्हि समापयामः वा, शुभरात्रिः,
शुभरात्रिः,
धन्यवादः,
धन्यवादः, स्वागतम्.